इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको युवराज भट्टराई। आदौ मुख्य वार्ताः। राष्ट्रपतिना द्रौपदी मुर्मूवर्यया राजगोपालाचारीवर्यस्य प्रतिमायाः कृतम् अनावरणम्। राष्ट्रपतिः द्रौपदी मुर्मू राष्ट्रप्रथम भावनया राजगोपालाचारीवर्यस्य जीवनरिक्थात् प्रेरणां स्वीकर्तुं देशवासिनः समाहूतवती। प्रधानमन्त्रिणा पश्चिमबंगराज्यस्य जनतां प्रति पत्रं लिखित्वा राज्यस्य विविध समाह्वानानि उल्लेखितानि। तेन केन्द्रसर्वकारस्य योजनानां विषये प्रकाशः प्रक्षिप्तः। सहैव आगामि विधानसभा निर्वाचने समर्थनार्थं मतदातृजनाः अध्यर्थिताः। तेहरान स्थितेन भारतीय दूतावासेन भारतीयानां सुरक्षां ध्यात्वा भारतीय नागरिकाः ईरान देशस्य त्यागार्थं समाहूताः। प्रदर्शन परेषु क्षेत्रेषु न गन्तुम् अपि भारतीयाः सञ्चेतिताः। बांग्लादेश राष्ट्रपतिना मोहम्मद साहबुद्दीनेन पूर्व सर्वकारस्य मुख्य परामर्शके मोहम्मद यूनुसे सांविधानिक प्रक्रिया लंघनस्य आरोपाः आरोपिताः। अपि च आईसीसी पुरुषवर्गीय विंशतिं प्रतिविंशति क्रिकेट विश्वचषकीय स्पर्धायाम् अद्य मुम्बईनगरे समुत्कृष्ट अष्टसमूहानां समरे जिम्बाब्वे दलस्य वेस्ट इण्डीज दलेन सह भविष्यति साम्मुख्यम्। अथ वार्ताः विस्तरेण। प्रथम भारतीय शासकस्य जीवनस्य रिक्थस्य च राजाजी उत्सवः अद्य राष्ट्रपति भवने सुतरां परिपाल्यते। अस्मिन् अवसरे राष्ट्रपतिः द्रौपदी मुर्मू नवदिल्लीस्थिते राष्ट्रपति भवने स्वतन्त्र भारतस्य प्रथम तथा एक एव भारतीय राज्यपाल जनरल चक्रवर्ती राजगोपालाचारीवर्यस्य प्रतिमायाः अनावरणं कृतवती।
आप राष्ट्रपति भवन में भारत माता के लिए सर्वस्व निछावर करने वाले परमवीर चक्र विजेताओं के चित्र शोभायमान। भारत की शास्त्रीय भाषाओं के ग्रंथों में रचित महान ज्ञान परंपरा को संजोने वाले प्राचीन पांडुलिपियों से समृद्ध ग्रंथ कुटीर की स्थापना राष्ट्रपति भवन में की गई। ऐसे अनेक बदलाव राजा जी के चिंतन और जीवन के अनुरूप भारतीयता पर गौरव की चेतना को आगे बढ़ाते।
इयं प्रतिमा अशोकमण्डपस्य समीपस्थे ग्रैंड ओपन सोपानं निकषा स्थितास्ति। एषा एडविन लुटियन्स इत्यस्याः प्रतिमायाः स्थाने प्रतिष्ठापिता वर्तते। राष्ट्रपतेः मुर्मूवर्यायाः कथनानुसारेण एषः उपक्रमः औपनिवेशिक मानसिकतायाः अवशेषान् परित्यज्य भारतस्य सांस्कृतिक वैभवस्य पुरातन रिक्थानां कालातीत परम्पराणां च गौरवपूर्ण सम्मानं स्वीकरोति। अथ च यहि राष्ट्रभक्तैः असाधारण योगदानैः भारत मातुः सेवा कृता तेषां सम्मानार्थमपि एषः उद्यमः श्लाघनीयः अस्ति। एषः उपक्रमः भारतस्य गौरवपूर्ण इतिहासस्य स्मरणं कारयति। राष्ट्रभक्तानां वीरतायाः सेवाभावस्य सांस्कृतिक परम्पराणां च अमूल्य योगदानं जनसमक्षं प्रस्तौति। अत्रावसरे राष्ट्रपतिना आशा व्यक्तीकृता यत् देशवासिनः राजगोपालाचारीवर्यस्य जीवनरिक्थेन प्रेरिताः सन्त राष्ट्रं सर्वोपरि मत्वा राष्ट्रभक्तिभावेन अग्रे आगच्छेयुः।
जो लोग राष्ट्रपति भवन देखने आएंगे उन्हें राजा जी के योगदान से परिचित कराया जाएगा। भारतीय चेतना और समस्त भारतवासियों विशेषकर कमजोर वर्गों के लोगों से जुड़ाव राजा जी के विचारों और कार्यों में दिखाई देता है।
अस्मिन् अवसरे प्रधानमन्त्री श्री नरेन्द्र मोदी अवदत् यत् राजाजी उत्सवः एकः अद्भुतः उपक्रमः अस्ति येन राष्ट्राय श्री गोपालाचारी वर्यस्य समृद्ध योगदानस्य विभिन्नाः पक्षाः प्रकाश्यन्ते। सामाजिक अन्तर्जालीय पटले लिखिते सन्देशे प्रधानमन्त्रिणा राजाजी उत्सवं प्रशंसता उक्तं यत् अयं प्रयासः नियति निर्धारकेभ्य सम्मानं प्रददाति। सः अवोचत् यत् राजाजी महान् विद्वान् स्वातन्त्र्य योद्धा चिन्तकः प्रशासकः च आसीत्। प्रधानमन्त्री श्रीनरेन्द्रमोदी पश्चिमबंगराज्ये आगामि विधानसभा निर्वाचनस्य पूर्वसन्ध्यायां राज्यजनतां प्रति मुक्तपत्रं प्रेषितवान्। तेन पत्रे गतदिशके केन्द्रसर्वकारस्य जनकल्याण विकास परियोजनानां विवेचनमपि कृतम्। प्रधानमन्त्रिणा तस्मिन् पत्रके जनधन योजना, उज्ज्वला योजना, आयुष्मान भारत योजना, स्वच्छ भारत अभियानं चेत्यादीनां योजनानां उल्लेखः कृतः। तेन उक्तं यत् असंख्य परिवाराः बैंक सेवा महानसीय वातीन्धन संयोजनं सुलभ स्वास्थ्य सेवां च प्राप्तवन्तः सन्ति। कृषक कल्याणात् युव सशक्तिकरण पर्यन्तं अवसंरचना विकासात् औद्योगिक निवेश वृद्धि पर्यन्तं विविधेषु क्षेत्रेषु सततं कार्यं कृतमिति प्रधानमन्त्रिणा प्रोक्तम्। पत्रे नागरिकता संशोधन अधिनियम तथा सीम सुरक्षा विषय अपि उल्लेखित। प्रधानमन्त्रिणा जनानाम् आह्वानं कृतं यत् राज्यस्य भावि पीठिकाया कर्णधाराणाम् उज्ज्वल भविष्यार्थम् अस्माभि जनताया समर्थनम् अपेक्ष्यते। संस्कृत वार्ताया संस्करणम् इदम् इदानीम् आकाशवाणीत प्रसार्यते। सममेव अयं कार्यक्रम आकाशवाण्य अन्तर्जाल पटले www.newzoneair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि श्रुतिगम्यो भविष्यति। प्रधानमन्त्रिणा श्रीनरेन्द्र मोदिना नवदिल्ल्याम् आयोजितस्य इण्डिया एआई इम्पैक्ट समिट इत्यस्य शिखर उपवेशनस्य समापनावसरे ऐतिहासिकस्य अस्य शिखर सम्मेलनस्य प्रशंसा कृता। तेन उक्तं यत् अस्मिन् कृत्रिम बुद्धिमत्ता समागमे भारतस्य प्रौद्योगिकीय क्षेत्रस्य सामर्थ्यं वैश्विक स्तरे प्रशंसितम्। एआई इम्पैक्ट समिट इति कृत्रिम मेधा शिखरोपवेशनस्य समापनं नवदिल्ली घोषणापत्रस्य स्वीकरणेन साकम् अभवत्। यत् कृत्रिम मेधाया वैश्विक सहकार्यं महत्वपूर्ण कोशीय स्तम्भत्वेन अत्र सिद्धम्। ईरान देशस्य राजधान्यां स्थितेन भारतस्य राजदूतावासेन तत्र स्थिताः सर्वेऽपि भारतीय नागरिकाः विनिर्दिष्टाः यत् ते यथोपलब्ध यातायात साधनै यथा वाणिज्यिक उड्डयन विमानै तस्मात् देशात् निर्गच्छन्त् इति। दूतावासेन जनवरी 14 प्रसारिता स्वसूचना पुनः प्रख्यापिता अस्ति यत्र सर्वे भारतीय नागरिकाः भारतीय मूलस्य जनाः च सतर्काः सावधानाः च भवितुम् अध्यर्थिताः सन्ति। साकमेव विरोध प्रदर्शनस्य क्षेत्रेभ्य दूरे स्थातुमपि ते प्रार्थिताः वर्तन्ते। अथ च दूतावासेन साकं सम्पर्कः स्थितौ स्थापयितुम् अपि जनाः सन्ति प्रार्थिताः। युगपदेव जागरूकी भूय च स्थानीय संचार माध्यमेषु अपि कुत्र किं किं जाजायते इति विषये निरीक्षणं कर्तुमपि जनाः निर्दिष्टाः सन्ति। अत्रान्तरे यात्रा प्रपत्रकाणि परिचय पत्राणि च भारतीयाः सर्वदा स्वपार्श्वे एव स्थापयन्तु इत्यपि विनिर्दिष्टमस्ति। संकटापन्ने क्षणे जनानां सहायतार्थं दौरभाष यन्त्रस्य सहायता संख्याश्चापि प्रसारिताः सन्ति। प्रधानमन्त्री मोदीवर्यः अपि नागरिक सुरक्षायाः महत्वं निध्याय समग्रे घटनाक्रमे नैजीं दृष्टिं स्थापयति। बांग्लादेश राष्ट्रपतिना मोहम्मद शहाबुद्दीनेन पूर्व सर्वकारस्य मुख्य परामर्शके मोहम्मद युनुसे सांविधानिक प्रक्रिया लंघनस्य आरोपाः आरोपिताः सन्ति। मोहम्मद शहाबुद्दीनेन मोहम्मद युनुसे पुनः पुनः सांविधानिक प्रक्रियाणाम् उल्लंघनस्य सम्यक्तया तेषां न परिपालनस्य च आरोपाः आरोपिताः सन्ति। एकस्यां वार्ता पत्रिकायां प्रदत्ते साक्षात्कारे सः युनुसे पर्याप्तं समर्थनं विना आपत्कालिकान् आवश्यक उपायाञ्च विना अनेकेषाम् अध्यादेशानां प्रवर्तनस्य आरोपपूर्वकं तस्य निन्दामपि अकरोत्। केन्द्रीय मन्त्री अमित शाह भारत टैक्सी समवायस्य सारथिभिः सह मिलित्वा अस्याः सहकार संस्थायाः उद्देश्यान् परिचर्चितवान्। असौ उदैरयत् यत् भारत टैक्सीति समवायः केवलं लाभार्जनाय नास्ति किन्तु सारथिनाम् आर्थिक सशक्तिकरणं कर्तुमपि अस्य लक्ष्यमस्ति। सारथयः एव अस्य संस्थायाः वास्तविकाः स्वामिनः सन्ति। अस्य लक्ष्यमस्ति यत् ते स्वगृह परिवारस्य सुचारु सञ्चालनं कर्तुं समर्थाः स्युः, साकमेव अधिकतमं लाभमपि प्राप्नुयुः। अत्रैव प्रशासनेतर समवायः केवलं समवाय स्वामिनां समृद्धिवर्धने एव निरता भवन्ति। अपि च क्रिकेट क्रीडायाम् आईसीसी क्रिकेट श्रृंखलायाः पुरुषवर्गे 20-20 विश्वचषक स्पर्धा अद्य उत्कृष्ट अष्टदलानां समूहस्य प्रथमगणे जिम्बाब्वे वेस्ट इण्डीज दलयोः स्पर्धा मुम्बईस्थिते क्रीडाङ्गणे भविष्यति। पूर्वम् उत्कृष्ट समरे भारतदलं दक्षिणाफ्रीका दलेन 60-70 धावनांकैः पराजितम् आसीत् इति वार्ताः।